अद्य चिन्तन मेलनस्य सार्वधातुक लकाराः आर्धधातुक लकाराः च अधिकचिन्तनम् इति पाठं पठिष्यामः। भगिनी आरम्भं करोतु।
अस्तु, सार्वधातुकम् आर्धधातुकम् इति नामद्वयं कुतः आगतम्? अष्टाध्यायां च द्वयोः नाम्नोः कीदृशव्यवहारः? सार्वधातुकम् आर्धधातुकम् इति नामद्वयं वस्तुतः पाणिनिना एव दत्तम्। नामकरणं भवति द्वाभ्यां संज्ञासूत्रायां। तिंशित् सार्वधातुकम् आर्धधातुकम् शेषः। इमे द्वे नामानि केषां भवतः? यत् तिंचषित् च भवति तस्य नाम सार्वधातुकम्, अपि च यत् तिंशित् च नास्ति तस्य नाम आर्धधातुकम्। अस्तु, किन्तु यत् नाम किम्? कस्य नाम भवति सार्वधातुकम्? पुनः कस्य अर्धधातुकम्? अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यम्। द्वे अपि सूत्रे तृतीयाध्याये अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः? प्रत्ययः, परश्च, धातोः। हि अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः। अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम। तादृशः च प्रत्ययः यः वदतु भगिनि,
किञ्चित् संक्षेपरूपेण वदतु।
प्रथम समापयामि, सर्व वयं जानीमः, अतः समाप्य वदामि। अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम। तादृशः च प्रत्ययः यः धातुभ्यः विधीयते, अनेन उत्तरं प्राप्तम्। अष्टाध्यायां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम। अत्र वयं सार्वधातुकम् अर्धधातुकम् इति पूर्वस्मिन् पाठे लकाराणाम् एवं नामानि श्रुतः, अतः एते संज्ञा कुतः आगतः इति पश्यामश्चेत्, प्रथमतः अष्टाध्यायां पाणिनिना एव द्वाभ्यां संज्ञा द्वावपि संज्ञानां सूत्रं दत्तं, तिंशित् सार्वधातुकम् आर्धधातुकं शेषः। परन्तु पाणिनिना दत्ता संज्ञा तु कस्यां भवति तस्य चिन्तनं करिष्यामश्चेत्, तिंचषित् च सार्वधातुकम्, ये तिंशित् नास्ति तेषां सर्वेषाम् आर्धधातुकम् इति संज्ञा भवति। परन्तु यः संज्ञा कस्य भवति, तत्र पुनः ये इमे सूत्रे कुत्र अस्ति इति द्रक्ष्यामश्चेत्, तृतीयाध्यायस्य आरम्भे एव प्रत्ययः परश्च इति अधिकारः अस्ति, अतः अर्थं च तदनन्तरं धातोः इति अधिकारः अपि अस्ति एकनवति सूत्रम्। अतः अस्य अध्याये यस्य कस्यापि विधानं भवति, केवलं तृतीयाध्याये न पञ्चमे बहुधा पञ्चमे अध्यायपर्यन्तं यस्य कस्यापि विधानं भवति सः तु प्रत्ययः इति भवति, अतः सार्वधातुकम् आर्धधातुकम् इति संज्ञा अपि प्रत्ययस्य एव भवति। ये प्रत्ययः धातोः परे विधीयमाना अस्ति इति मम चिन्तनम्।
प्रत्ययः धातोः परे तृतीय अध्याय एव धातोः प्रत्ययः तृतीय अध्याय एव अस्ति इति मम अवगतम्। अवगमनं चतुर्थ पञ्चम अध्याये प्रातिपादिकानां प्रत्ययः विधीयन्तः किल
आम् तत् ममपि अवगमनं
आम् आम्
अत्र दृश्यते चेत् धातोः इत्यस्य अधिकारः केवलं तृतीयपादे तृतीयाध्याये एव वर्तते प्रथमाध्यायस्य चतुर्थाध्यायपर्यन्तम् तत्र सर्वधातुकम् अर्थधातुकम् इति धातुकप्रत्ययानाम् एव विधीयमान प्रत्ययानाम् एव
एषाम् एते संज्ञा भवति
नामद्वयमस्ति किन्तु प्रत्ययः परश्च इति अन्य प्रकरणानां कारणेन चतुर्थाध्याय पञ्चमाध्यायपर्यन्तं तस्य अधिक परस्तेश परश्च इति अधिकारसूत्रस्य प्रसक्तिः अस्ति
समीचीनं महोदय धन्यवादः सन्देहः अस्ति अथवा स्पष्टं अभवत्
स्पष्टं
उमा भगिनी भवती अस्ति किल
अस्मि स्पष्टमस्ति
किञ्चित् अग्रे पठतु
सार्वधातुक धातुः नाम कः आर्धधातुकधातुः नाम कः धातूनाम् एतादृशनामकरणं किमपि नास्ति एव धातोः विभजनं सार्वधातुकत्वेन आर्धधातुकत्वेन च न क्रियते सो अत्र धातोर्मध्ये सार्वधातुकधातुः आर्धधातुक धातुः इति विभजनं नास्ति प्रत्यये एव अत्र विभजनम् अस्ति अग्रे पठामि वा
पठतु भगिनि
सार्वधातुकप्रत्ययः नाम कः आर्धधातुकप्रत्ययः नाम कः प्रत्ययः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा षित् अस्ति स च प्रत्ययः सार्वधातुकः तिङ् षित् सार्वधातुकम् इति सूत्रम् यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् न वा षित् अस्ति स च प्रत्ययः आर्धधातुकः आर्धधातुकं चेशः इति सूत्रम् सो प्रत्यये एव तिङ्क्षित् विभजनमस्ति तस्मात् धातोः अपि विधीयमानः प्रत्ययः तिङ्क्षित् यथा अस्ति तदेव सार्वधातुक प्रत्ययः यत्र तिङ्क्षित् यत्र प्रत्ययः यत्र प्रत्यये तिङ्क्षित् नास्ति ते एव आर्धधातुक प्रत्ययः
इत्यस्य किञ्चित्
तिङ् इति कर्मपदम् लट् लङ् लोट् विदिलिङ् तिङ् नो तित् तस्ति आरभ्य महीन् पर्यन्तं दट् इस् नैन् प्रत्ययाः फार् परस्मैपदि अण्ड् नैन् प्रत्ययाः फार् आत्मनेपदि येषां च एव तिङ् इति कथ्यते षित् अपि चेत् विकरणप्रत्ययः अस्ति ते एव षित् इति मन्ये
षित् इति चेत् प्रत्ययस्य शकारः इत् संज्ञकः भवति इति अहं
दट् इस् ट्रू बट् वी काल् इट् षित् नो
विकरणप्रत्ययः इस् एनिथिङ्ग् दट् कम्स् बिट्वीन् इट् नाट् जस्ट् नाट् नेसेसरि जस्ट् षित्
ओके ओके दट् इस् आल्सो ट्रू बिकास् यस् बिकास् वेन् यु आड् दि शत्रुप्रत्यय आर् Shanaj Pratyaya, then Shit only comes. You are right. So it not, need not be Vikarana Pratyaya only. Shit asti chet, it is Sarvadataka. Right. Sorry for the mistake. But I am learning.
That's okay. Patitu.
Okay. Sarvadataka lakaraha ityukte kim. So atra agachati. Okay. Yasmin lakare dhatoh anantaram kartvartakah sarvadataka pratyayah sakshat drishyate tasmin lakare kartari shap ityanena shap vidhyate api cha tadarthameva cha tadarthameva sacha lakarah sarvadatukah tadartham kim iti chet shapah vidhanameva sarvadatukah lakarah iti namakaranasya nimittam. Sarvadatuk lakaraha vivaranam drishyate lakare dhatoho anantaram kartartakah, that is very important, active voice kartartakah sarvadatuka pratyayah saksha drishyate tasmi lakare kartari shap ityanena shap vidhyate api cha tadarthameva cha tadarthameva sacha lakarah sarvadatukah. That is dhatuhu yogah pratyayah and dhatuhu pratyakshena drishyate lakarah sarvadatukah pratyayam drishyate, that is for kartartakah. So tadeva shap vidyate tadeva sarvadataka lakarah, that is dhatuhu yogah lakarah. So that straight away it is lakarah, in the sense here ti lat lang lot vidiling atra lakarah. So yatra dhatuhu pratyakshena kartartake the pratyayam is drishyate tadeva sarvadataka lakarah, because when we read on the thing we will understand better. Kartari shap kartarte sarvadataka pratyaha pare asti chet dhatutah shap pratyaha bhavati atra kartarte kartari prayogaha iti bodhyam bhave karmane cha shap pratyaha na vidhiyate. Sahita sutram kartari sarvadatuke dhatoho parascha shap pratyaha. So that is the dhatu straight away sees the pratyam without anything coming in between, and that this is for kartari kartartakah, that is active voice. This is only sarvadatakam. Udaharan given. Hello, anything? Bhu yogaha lat. See, first, see, we have to go this step by step, because I made a mistake. Vidya Bhagini corrected me. That's why I am very clear about this. Bhu dhatuhu yogaha lat. So, our what is our aim now? To create a lat lakaraha. So, bhu dhatuhu yogaha lat. This is our primary step, first step. Then second step is the let is replaced by ill. That is the rest of the lopaha avasishyate lakara eva. So bhu yoga lakara. Then what is this lakara? Now we want to do only active voice. Active voice and then prathama purushaha ekavachana. So for that tip is the pratyam. So bhu yoga tip. कर्तर्तकः सार्वधातुः अतः कर्तरी शप् इत्यनेन शप् इक्वल् टु देयर् ओन्ली अरेसस् द शप् व्हेनेवर् दि धातु डैरेक्टली सीस् दि तिगन्ध प्रत्ययम् अण्ड् फार् द कर्तरी सेन्स् देन् दट् इस् शप् इस् दि प्रत्ययः कम्स् इन् बिट्वीन् सो भू योगः शप् योगः ति वि शुड् नाट् टेक् दिस् स्टेप् फस्ट् यु हव् टु से dhatu yogah lat, then dhatu yogah lakarah, then dhatu yogah tip. Here dhatu directly sees the tip pratyaya, that is called sarvadatuka. I think I made it clear enough. Because I made this mistake, so I know that where I went wrong. All thankful, thanks to Vidya Bhagini. She clarified me, corrected me.
सम्यक् करोति भवती भगिनि, धन्यवादः. अनन्तरं सेतुराम् महोदय, भवान् पठति वा?
हा, पठामि. अस्मिन् कन्वे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः पुरतः, अतः कर्तरि शप् इत्यस्य अवसरः अस्ति. चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति, लटि, लोटि, नञि, विधिलिं च. एतादृशी स्थितिः नाम का? धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते, यथा भू तिप् भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति, अतः तिप् साक्षात् दृश्यते. अत्र लिखितः अस्ति, पुनरावृत्तिः अस्ति. सार्वधातुक प्रत्ययः धातोः पुरतः अस्ति, तथैव साक्षात् दृश्यते, अतः कर्तरिशप् इत्यस्य सङ्गः अथवा अवसरः अस्ति. इदं प्रक्रिया भवति चतुर्षु लकारेषु, लट् लकार, लोट् लकार, लिङ् लकार, विधिलिङ् लकारेषु. अत्र लिखितः एतादृशी स्थितिः नाम का? एतादृशी स्थितिः धातुना सर्वधातुकप्रत्ययः साक्षात् दृश्यते, तदेव उक्तं, किमपि नूतनं नास्ति अत्र इति मम
वक्तुमिच्छामि. अत्र दिस् इस् सार्वधातुकः लकाराः लट् लोट् लङ् विधिलिङ्, ओन्लि दीस् फोर् आर् सार्वधातुकः. अत्र एव धातुः प्रत्यक्षेण tip pratyaha drishyate, because we will see further when we go to other things like lit or lit, it is a madhye something agachati even the second step. That is the reason. We will see further, then we will understand better.
Samyak. Abde pathami ha?
Pathtu mahode.
Dheyam yat एषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रबाध्य अन्ये धातुगणनिमित्तविकरणप्रत्ययाः विधीयन्ते, यथा ह्यन्, श्नु इत्यादयः. प्रथमं शप् प्रत्ययः आयाति, तदा भ्वादिः, अदादिः, जहोत्वादिः, चुरादिः इत्यनेन इत्येतान् गणान् विहाय अपरेषु षट्सु गणेषु शपं प्रबाध्य तत्तद्गणस्य विकरणप्रत्ययः आयाति. एतदर्थं सार्वधातुकलकारेषु कस्यापि धातोः तिगन्तरूपस्य निर्माणात् प्राक् च धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम्. अत्र लिखितः चतुर्षु सार्वधातुकलकारेषु शप् आयाति, अथ एव अन्ये लकारे विभिन्नप्रत्ययाः आगच्छन्ति, यथा शन्ति. प्रथमतः
महोदय, लकारेण गणे धातु कस्य गणस्य अस्ति इति
yeah, अवगतं भगिनि मिस्टेक्
गणप्रत्ययः
गण विभेदेन भिन्नप्रत्ययाः आगच्छन्ति. प्रथमं शप् आयाति तदा भ्वादि अदादि जुहोत्वादि चिरादि त्रीणां गणान् विहाय सर्वेषु गणेषु तत् गणस्य विकरणप्रत्ययः इति. अत्र अदादिगणे जुहोत्वादिगणे अपि शप् आगच्छति. अनन्तर षड् गणेषु
स्लू लुक् भवति इति मन्ये. अदादि शप् लोपः भवति अदादि
जुहोत्यादिगणे लोपः भवति द्वित्वम् आयाति. परन्तु भ्वादिगणे चुरादिगणे शप् प्रत्ययः तिष्ठति. षट्सु गणेषु
चकारः आगच्छति महोदय. दट् इस् द्वादिगणे अदादिगणे जुहोत्यादिगणे दिवादिगणे स्वादिगणे सुदादिगणे अण्ड् रुदादिगणे अण्ड् त्रयादिगणे अण्ड् चुरादिगणे सर्वत्र शप् आगच्छति. किन्तु शप् आर् शकार आगच्छति. किन्तु तनादयः एव उ इति विकरणप्रत्ययम् तदेव शप् न आयाति.
भगिनि शपं विहाय स्नु आगच्छति अतः
सारी षकारः आगच्छति टु बि करेक्ट् एक्सेप्ट् षकारः सर्वत्र आगच्छति.
तत् पाठम् अत्र नास्ति अतः किञ्चित् भ्रमः अभवत्. यथा अत्र लिखितं तदेव वयं पठितवन्तः चेत् भ्रमः न अभवत्.
भगिनि स्नु एपि प्रत्ययः शप् प्रत्ययः सन्ति वा?
शपस्ते शपस्य स्थाने तदागच्छति. आदेशः
अदादिगणे शप् अस्ति किन्तु शप् लुक् भवति. जुहोत्यगणे शप् अस्ति किन्तु श्लू भवति. सो दट् मीन् देर् इस् दट् इस् अ डिफरेन्स् बिट्वीन् अदादे अण्ड् जुहोत्यादेः. शकारः अस्ति ओन्लि तनादेः शकारः नास्ति.
भगिनि भगिनि केन् यु प्लीस् ड्राप् देट् पायिण्ट् नौ ऐ थिङ्क् देट्स् इन् अ फ्यूचर् लेसन् ऐ थिङ्क् देट् वू नाट् हेविङ्ग् शा इस् नाट् part of our current thing.
Yes, you are right.
Okay, so what we are saying here is in the place of shap, another pratyaya comes as a substitute.
In other six ganas, other pratyaya comes other than the shap. That's what
correct. As a substitute adesha,
right? So etadartham sarva dhatuka lakareshu kasipi dhatoho tiganta rupasya nirmanatra सच धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातुम्. सो अतः अत्र लिखितः धातुः कस्मिन् गणे अस्ति तस्य ज्ञानम् आवश्यकम्.
चतुर्षु लकारेषु एव आवश्यकं क्रियापदं निर्माणार्थम्.
अनन्तरं ओके तत्समये विकरणप्रत्ययस्य प्रश्नः नास्ति वा? षट्कणेषु विकरणरूपस्य निर्माण प्राक् धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातवान् अत्र लिखितः.
किञ्चित्
सन्देहः नास्ति. चतुर्थगणे चतुर्गणेषु शप् अस्ति, रिमेनिङ्ग् गणेषु शप् नास्ति. भिन्नव्यक्त्याः सन्ति अत एव लिखितः. अग्रे पठामि.
पठतु उदाहरण पठतु.
उदाहरणाः सन्ति अत्र. भ्वादिगणे पा इति धातुः उपदेशस्य अवस्थायां, तदनन्तरं लट् योगः, लट् योगानन्तरं लट् लकारस्य लकारः भवति.
किमर्थं महोदय, किमर्थं
हलन्तस्य इति सूत्रेण टकारस्य लोपः भवति, तत्कारणेन लट् इति ल भवति. तदनन्तरं लट् लकारस्य स्थाने तिप् प्रत्ययः आगच्छति. लट् लकारः तिप् कर्तरि लिप् तिप् प्रत्ययः वर्तमानकाले प्रथमपुरुष एकवचने अस्ति. लट् स्थाने तिप् प्रत्ययस्य आवश्यकता भवति. तत् कर्तरि शप् इत्यनेन मध्ये शप् प्रत्ययः आगच्छति. अस्ति भ्वादिगणे, अतः पा योगः शप् योगः तिप् इति आगच्छति. कर्तरि शप् इत्यनेन शिति परे पा धातोः तिप् आदेशः पा धातोः तस्य रूपः भवति पिब् योगः रूपः भवति अकारपकारलोपानन्तरं. तदनन्तरं तिप् प्रत्ययस्य तिङ् प्रत्ययः ति इति भवति. अतः पिबति इति अन्तिमरूपं भवति. अत्र लिखितः पा कतः कुतः पिब भवति, अत्र स्टार् अस्ति, तत्र लिखितः विवरणं. बकारे अकारः अस्ति, दण्ड नास्ति, अतः एकसूत्रः अस्ति अतो गुणे इत्यनेन सूत्रस्य प्रभावेन पा भवति.
पा पिब इति अन्यसूत्रमिति मन्ये, अन्यसूत्रः इति मन्ये महोदय. अतो गुणे इत्यस्य प्रभावम् अस्ति, पिबाति इति न भवति, पिबति एव भवति. अरविन्द् महोदय, अतो गुणे इत्यस्य किञ्चित् विवरणं करोति.
I think Sriram Mahodaya will be able to do better than, because I'm not studying this Adhikuna Sutra. Sriram Mahodaya?
Yeah, Mahodaya, I'm api atra sutrasya vivaranam na janami. Dattam yet atra savarna dirga sandhi iti karane na akarantasya आगमनं न भवति इति एव अहमपि जानामि. क्षम्यताम्.
अन्ये किमपि जानाति किल? अस्तु
भगिनि, अहमपि न जानामि
अत्र.
अहमपि न जानामि, किन्तु दीर्घत्वं नास्ति अत्र. पूर्व परयोगस्थाने एकः पररूप इस पररूप संधि दे काले सो ओनली इंस्टेड ऑफ टू कमिंग प्रीवियस दिस थिंग इज टेकन हियर सो दैट इज व्हाई इट इज पिबति नॉट पिबाति
अस्तु भगिनी अग्रे गच्छ अनन्तरं पठित्वा लिखामि
जुहोत्वादिगणे दा योगः लट् तदनन्तरं भवति दा लट् से रूपः भवति ल लकारः तदनन्तरं दा लट् स्थाने तिप् प्रत्ययः आगच्छति कर्तरि शप् इत्यनेन शप् प्रत्ययः अस्ति अत्र जुहोत्वादिगणे श्लुः इति शप् प्रत्ययस्य इत्यनेन शप् प्रत्ययस्य श्लु लोपः भवति श्लौ इति एकः सूत्रः अस्ति श्लौ इत्यनेन सूत्रेण धातोः द्वित्वं भवति तदा दा भवति ददाति अन्तिमरूपं ददाति भवति
अत्र अष्टाध्यायी मते मया दत्तं मया पृष्टं वदति अतो अपदान्त अकारात् गुणे परे पूर्वपरयो एकपररूप एकादेशः भवति उदाहरणमस्ति पट् योगः सप् योगः अन्ति पठन्ति इति रूपं तत्र पट् योगः सप् बिकम्स् पट् योग आ प्लस् अन्ति योग अन्ति तु पटयोग अन्ति किन्तु पटयोग अन्ति अकसवर्णे दीर्घ इति सूत्रेण दीर्घ अकारस्य प्रसक्तिः अस्ति किन्तु एतत् सूत्र अतो गुणसूत्रं तत् निषिध्यते दीर्घत्वं निषिध्य एकपररूप आदेशः भवति पररूप आदेशः इत्युक्ते पट अन्ति अत्र अन्ति पूर्व अकारस्य लोपः भवति पट योगः अन्ति एव आयाति इति कृत्वा पठन्ति आयाति दट् इस् वेन् टू आ कम् सै बै सैड् फार् थिङ्ग् नार्मलि अकसवर्णे दीर्घ शुड् बि बिकम् दीर्घ आकार पटान्ति शुड् कम् but that is prohibited by this sutra ato guna so pata pata plus anti becomes patanti only between the first a and the second a only one a eka para roopa adesha bhavati that is what ato guna is
akara is the guna for akara
no it is not the guna it's a sandhi rule ato guna yatra a followed by another a
actually mahoday if you read above it says yadi apadantat akarat parah gunavarnah agacchati ata that is why you have guna so when you have a or a either three of them come after an apadantat then there will be a pararupa sandhi apurva rupa sandhi not a guna or savarna dirgha ityadaya
Right. Yeah, so the the following letter has to be a guna letter. That's the guna
yes.
of the sutra. Okay.
But that a has to be apadanta. Here and, pib yoga a is it is in between it. It is piba is not a pada. Apadanta at akarat pare.
Yeah. And the akara is also akara a happens to be a guna letter, so it works. Okay.
Yes.
धन्यवादः धन्यवादः महोदय
धन्यवादः
अग्रे पठामि
पठतु महोदय पठतु
स्वादिगणे अप् योगः लट् आप् योगः लट् आप् धातो अनन्तरं लट् भवति लकारः लकारः लकारस्य स्थाने तिप् प्रत्ययः आगच्छति आप् योगः तिप् कर्तृशप् इत्यनेन स्वादिगणे स्नुः प्रत्ययः स्नु सूत्रः आगच्छति एकस्मिन् स्वादिभ्यः स्नुः इति सूत्रेण तत्र शप् प्रत्ययस्य स्नु प्रभावेन अत्र स्नु बिकम्स् नु नु उकारस्य ओकारः भवति आप्नोति इति अन्तिमरूपम् आप् स्नु तिप् तिप् अति अस्ति हि प्रत्ययः आप् आप् नोति आप्नोति उकारस्य ओकारः गुणः भवति किमर्थं न जानामि
अग्रे अग्रिमपाठमस्ति महोदय अधुना न चर्चा करोमि इति मन्ये धन्यवादः
महोदय कृत्वा तिङ्क्षित् सर्वधातुकं सर्वधातुक अर्थधातुकयोः इति कारणेन गुणं विधीयते अत्र तिप् अयतिप् तस्य पूर्वम् उकार अस्ति तत्कारणेन अङ्गं भवति आप् योगः उ आपु आपु योगः तिप् तिप् तिङ् अस्ति कृत्वा गुणं कर्तुं करणीयम् तत् कारणेन आपु बिकम्स् आपो आप्नो आप्नु बिकम्स् आप्नो बिकास् आफ् द टिप् सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणम् आयाति तद् नु बिकम्स् नो आप्नो
थेङ्क्यू धन्यवादः
धन्यवादः महोदय अरविन्द महोदय भवान् पठति किल
अत्र बकारे आकार अस्ति दण्ड नास्ति उदाहरणमस्ति तिब् तिब् तिबा अस्ति तिबा पश्यति चेत् अन्तिम ह्रस्व अकार अस्ति तदनन्तरम् आ योगः ति अत्र अतो गुण इति यदा यदा अहं दृष्टवन्तः पूर्वपरयोः एक आदेशः भवति इति कृत्वा पिबति भवति तथया अतो गुणस्य विवरणम् तदनन्तरम् अत्र देयं यत् त्रयाणां लट् लकार रूपे धातु तिङ् प्रत्ययोः मध्ये यः स्वरः अस्ति सः भिन्नः पिबति ददाति आप्नोति अपि च ददाति इत्यस्मिन् धातोः द्युत्तम् अनेन कारणेन वदामः यद् धातुगुणे गुणभेदात् रूपभेदः इति एवमेव सर्वधातुकलकारस्य लक्षणम् अत्र वयं यत् त्रयाणां लट् लकाररूपे लकाररूपे धातु तिङ् प्रत्ययो मध्ये यः स्वरः अस्ति तस्सः भिन्नः इत्युक्ते पिबति ददाति आप्नोति इति त्रयाणां लकाराणां चेत् मध्यम स्वरः भिन्नः दृश्यते तत्तु तस्य कारणम् अस्ति धातुगुणभेदादेव तदेव सर्वधातुलकारस्य लक्षणम् उपदेशरूप यु आर् आस्किङ्ग्
संथिङ्ग् नो महोदय प्लीस् प्रोसीड्
ओके
पाणिनिना साक्षात् सर्वधातु लकारः अर्धधातु लकारः च संज्ञाद्वयं कुत्रापि न दत्तम्, किन्तु अष्टाध्याय्याः आकृतिः स्वयं पूर्णतया एतादृशनामकरणं पेषयति। अतः अति पोषयति पोषयति अतः अतीव योगं योग्यम् अभूतपूर्वन् पूर्वनामकरणम् अभूतपूर्वनामकरणम् इदं मातृभिः कृतम्। अनेन नामकरणेन किं भवति? ज्ञानं सुदृढं भवति, आयोजितं भवति मनसि। ज्ञानस्य सम्यक् आयोजनं न भवति चेत् अस्तव्यवस्था ता अस्तव्यवस्थता इति फलम्। अपि च शास्त्रीयव्याकरणविषये गुरुकुलेषु बहूनां मनसि इयमेव अस्तव्यवस्थता वर्तते, तस्य निवारणार्थं मातुः शिक्षापद्धति अत्यावश्यकी। अत्र दत्तमस्ति पाणिनिना धूपद्वयं न कुत्रापि न दत्तं, सर्वधातु लकाराः अर्धधातु लकाराः, किन्तु अष्टाध्यायी आकृति दृश्यते चेत् तस्य नामकरणं नास्ति चेदपि तस्य विभजनं प्रक्रियां दृश्यते। अनेन कारणेन मातु तस्य संज्ञा दत्त्वा सर्वधातुलकारः अर्धधातुलकारः इति भागद्वयं कृतम्। अस्य कारणेन लकारप्रक्रिया धातुप्रक्रिया कर्ते समये बहु सुदृढं ज्ञानं भवति, किन्तु शास्त्रीयव्याकरणमाध्यमे गुरुकुलीयविषये अहं पठामि चेत् तत्र अर्थव्यवस्थता वर्तते, इत्युक्ते समीचीनचिन्तनं न भवति, भ्रमः जातः इति कृत्वा सम्यक् न ज्ञानं भवति। ततः तस्य निर्वारणार्थं मातुः अस्य शिष्यपद्धति रूपं दत्तम्।
सम्यक् महोदय, धन्यवादः।
क्षम्यतां महोदय, ऐ केन् से द यु ईट् आफ् द क इट् इस् सार्वधातुक लकार एण्ड् अर्धधातुक लकार, यु बीन् सेयिङ्ग् सार्वधातु लकार एण्ड् अर्धधातु लकार, just to keep in mind.
Thank you bhagini. Shriram mahodaya, bhavan agre particular.
Aam bhagini, ardhadhatuka lakarah ityukte kim? Yasmin lakare dhatoh anantaram kartartaka sarvadhatuka pratyayah शक्तिः नास्ति, अतः शप् न भवति, अनेन सह लकारः आर्धधातुकः। तादृशे लकारे तिङन्तरूपस्य निर्माणार्थं धातुः कस्मिन् गणे अस्ति इति विषये किमपि अवधानं नास्ति, धातुगणस्य न कोऽपि प्रसङ्गः। यथा भवादिगणे पा योगः लृट् पास्यति, जुहोत्यादिगणे दा योगः लृट् दास्यति, स्वादिगणे आप् योग स्पष्टतया दृश्यते यत् धातुगणभेदात् रूपभेदः इति किमपि नास्ति। किमर्थम् धातुगणनिमित्तक विकरण विकरणाभावात्
किञ्चित्
संक्षेपरूपेणमस्ति आर्धधातुकलकार किञ्चित् विवरणम्। आर्धधातुकलकारः अस्ति चेत् अत्र विकरणप्रत्ययस्य आवश्यकम् न दृश्यते। अत्र गण धातुगणस्य धातुगणस्य आर्धधातुकलकारः अस्ति चेत् धातुगणभेदः अस्ति चेदपि विकरणप्रत्ययस्य आवश्यकमेव नास्ति, अत्र समानमेव। उदाहरणम् अत्र दत्तं लिट् लकारस्य विषये, भ्वादिगणे, जुहोत्यादिगणे, स्वादिगणे उदाहरणार्थं त्रयः धातवः अपि पादातुः भ्वादिगणे लिट् पास्यति इति एव। अनन्तरं जुहोत्यादिगणे अपि दा लिट् दास्यति, स्वादिगणे आप् इति धातुः लिट् लकारे आप् धातुः गण
Mahode, I'm hearing a lot of noise. Are other people able to hear Mahodeya clearly?
No, we missed some words in between.
Not able to hear properly. Some sound comes along with that, like bell, something.
Right, something physical. I think there may be a disturbance in your line, Mahodeya.
Oh, okay. Idanim Shruyate va?
Ah, Idanim Samyak Asti.
Yeah, so we are able to follow what you say.
Okay. या अत्र धातुगणभेदात् अन्तिमरूपे भेदः नास्ति। लट्लकारविषये आर्धधातुकलकारः इति कारणेन विकरणप्रत्ययस्य आवश्यकमेव नास्ति। अनन्तरं गणभेदात् रूपभेदमपि न दृश्यते, रूपभेदापि न दृश्यते। उदाहरणमत्र दत्तं पा दा आप् अत्र धातुत्रयम् एकः स्वादिगणे, अनन्तरं दा धातुः जुहोत्यादिगणे, आप् धातुः स्वादिगणे सन्ति चेत् अपि लिट् लकार विषये अन्तिमरूपं पास्यति, दास्यति, आप्स्यति।
हियरिङ्ग् द नाय्स् अगेन्,
अहमपि न जानामि किमर्थम् अत्र ध्वनिः आगच्छति इति।
सङ्गीतमस्ति परन्तु
मम मम गृहे न, मम गृहात् न,
ऐ कान्ट् हियर् म्यूसिक्, ऐ जस्ट् हियर् दि वाय्स् कटिङ्ग् एस् सो देर् इस् अ इण्टर्नेट् इश्यू।
ओ ओके,
पियानो पियानो नोट् वेरि म्यूसिकल्,
नो ऐ ओन्ली हर्ड् लैक् क्रास् टाक् इन्
अस्तु अस्तु महोदय, अनन्तरं पमेला भगिनी पठतु।
इण्टर्नेट् इण्टर्नेट् डेटा स्पीड् इस् संथिङ्ग् प्राब्लम् इति, दट् मस्ट् बी द रीज़न् वै द ब्रेक् अप्।
अस्तु महोदय,
आं भगिनि, कुत्र पञ्चमबिन्दु पठनीयं वा?
एतदर्थम् इति तत् पञ्चमबिन्दु बिन्दु एतदर्थम् इति
एतदर्थं दशधातुगणाः प्रयोजनीयाः केवलं सार्वधातुकलकारेषु लटि लोटि लिङ् विधिलिङ् च. आर्धधातुकलकारेषु लिटि लुटि लुटि लिङ्गि लुङ्गि आशीर्लिङ्गि च धातुगणानां किमपि प्रयोजनं नास्ति. आर्धधातुकलकाराणां पठनावसरे सर्वे धातव एकस्मिन् एव गणे एकत्र स्थापयन्ते. अस्तु, यथा महोदयेन उक्तं तत्र आर्धधातुकलकारेषु सार्वधातुकलकारे कथं गणं निमित्तीकृत्य रूपभेदः दृश्यते तादृशभेदः आर्धधातुकलकारेषु न दृश्यते. अत एव सर्वे धातव एकस्मिन् एव गणे एकत्र स्थापयन्ते इति दत्तम् अस्ति. तत्र वृत्तान्ते लिट्लकारे सर्वेषां द्विसहस्रस्य धातूनां तिनन्तरूपाणि एकत्र प्रदर्शनीयानि, तत्र कोऽपि धातुगणभेदो नास्ति. तथैव लुटि लुटि आशीर्लिङ्गि लुङ्गि लुङ्गि च. तत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीयाः. एतादृशं वर्गीकरणम् अतीव लाभदायकम्, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति. अनेन महत् सौकर्यम्. तत्र लिखितम् आर्धधातुकलकारेषु केवलम् अन्तिमवर्णं दृष्ट्वा एव चतुर्दशवर्गः क्रियन्ते. एतादृशवर्गकरणस्य लाभः किम् अस्ति चेत् पाणिनिः तत् सूत्राणि तम् अनुसृत्य कृतं कार्यं विदधति इति उक्तम्. अग्रे पठामि वा अथवा तत्
किञ्चित् चतुर्निमिषानि सन्ति
अतः एतत् सर्वाणि पठामि वा 14 अथवा तत् लैक् कारान्त यथा कथ गण रच इत्यादय आकारान्त स्किप् दट् रैट् अतः यथा पा धातु दा धातु च अर्धधातुकलकारस्य आयोजनेन एकस्मिन् एव अन्तर्गणे एकत्र भवत् अकारान्तेषु, किन्तु सार्वधातुकलकारस्य आयोजने इमे द्वौ धातु पृथक् पृथक् गणस्थ. वयं पूर्वस्मिन् परिच्छेदे एव दृष्टवन्तः पा पास्यति भवति दा ददाति इति भवति. यदि वयं सार्वधातुकलकारेषु वयं पश्यामः चेत् किन्तु अत्र यदि आर्धधातुकलकारेषु सन्ति इति कृत्वा पास्यति दास्यति समानेवं रूपं भवति, तत्र तु किमपि भेदः नास्ति इति तथैव वदति. एवमेव संस्कृतभाषायां यावन्त आकारान्त दातवः सन्ति ते सर्वे आर्धधातुकलकारस्य आयोजने एव एकत्र भवन्ति. इत्यस्य अर्थ इत्युक्ते सर्वे आकारान्त धातूनाम् आर्धधातुकलकारेषु एक एव रूप सिद्ध्यति, पास्यति दास्यति लास्यति इति. तावदेव भगिनी, अग्रिमे भवती
पठतु भगिनि.
अहं पठामि अथवा भवती पठति किं के काल
समयः जातः. विकरणं नाम किं? विकरणं नाम तादृशप्रत्ययः यः धातुभ्यः विधीयते किन्तु साक्षात् न विधीयते. प्रथमतया लकारः विधीयते, तदा सार्वधातुकलकारस्य विकरणं चेत् लकारस्य स्थाने तिङ् प्रत्ययः, तदा धातु तिङ् प्रत्ययोः मध्ये विकरणम् आगच्छति. आर्धधातुकलकारस्य विकरणं चेत् धातु लकार प्रत्ययोः मध्ये एव आगच्छति. विकरणप्रत्ययः प्रथमतया न धातोः न विधीयते. प्रथमसोपानमस्ति लकारः. लकारस्य स्थाने तिङ् प्रत्ययः आयाति. अनन्तरं धातोः तिङ् प्रत्ययोः धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः आयाति. सार्वधातुकलकारस्य आर्धधातुकलकारस्य द्वयोः अपि तदेव स्थितिः इति अवगच्छामि. सम्यक् वा? विकरणप्रत्ययः सार्वधातुकलकारः वा अर्धधातुकलकारः वा द्वयोः एव विकरणप्रत्ययः धातोः तिङ् धातु तिङ्
एकनिमिषम् विकरणप्रत्ययः अर्धधातुके नास्ति, सार्वधातुके एव विकरणप्रत्ययः आगच्छति. We saw in the litlakara, no? Litlakare, vikrana pratyaya nasti. Tasmadeva, sarva gane, litlakaha ekamiva asti. Pasti, dasyati, pasyati, dasyati, apsyati, iti. Atra vikrana pratyaya nasti. Bhagini, arga dasuke vikrana pratyaya nasti.
Atra api sya iti vikrana pratyaya eva. अत्र स्या इति अपि विकरणप्रत्ययः एव.
समीचीनं भवान्, किन्तु अत्र सार्वधातुकलकारे विकरणप्रत्ययः मीन्स् गणप्रत्ययः, इट् इस् गणप्रत्ययः आगच्छति. किन्तु आर्धधातुकलकारे धातोः तिङन्तप्रत्ययः
आर्धधातुकलकारे लकारस्य विकरणप्रत्ययः यद् विधीयते तद् आगच्छति. स्य इति लृट् लकारस्य विकरणप्रत्ययः.
So what I understand from this vikarana pratyaya is what comes between the dhatu and the thing pratyaya.
Irrespective of whether it's ardhadhatuka or
sarvadhatuka. Anantaram yata Arvind Mahodaya vadati, sarvadhatuka lakara vikarana pratyaya is based on gana. ధాతుకార వికరణ ప్రత్యయ ఇస్ బేస్డ్ ఆన్ లకార.
బహు సమీచీనం.
సమయ జాత. డు యు వాంట్ కంటిన్యూ?
ఐ హావ్ టు గో అండ్ డు
as what Rina Mahodaya said, the pratyaya which comes between the dhatu and the thing is called vikarana pratyaya, irrespective whether it's sarvadhatu or ardhadhatu. That vikarana is for that pratyaya which comes between the two. Only sarvadhatu lakara, it is directing towards the gana veda, whereas in the ardhadhatu lakara, it is giving the what you call it, the substitute in place of sab, like sya, tar, sri. These are the substitutes in place of lakara. I mean the vikarana pratyaya. So, but by definition, what comes between thing and the dhatu is called the vikarana pratyaya.
Yes, agreed.
Yeah.